इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः जवाहरलाल नेहरू स्टेडियम इत्यत्र प्रधानमन्त्री स्वनिधि लाभार्थिनः सम्बोधयति। प्रधानमन्त्री नरेन्द्रमोदी अद्य सायं भूटानस्य प्रधानमन्त्रिणा दाशो शेरिंग टोबगे इत्यनेन सह द्विपक्षीय संवादं करिष्यति। सूचना प्रसारण मन्त्रालयेन अश्लील सामग्र्याः प्रसारं विरुध्य 18 ओटीटी प्रसार प्रणाल्यः निषेधिताः। रामनाथ कोविन्दस्य नेतृत्वभूत समित्या अद्य नवदिल्ल्यां द्रौपदी मुर्मू वर्यायै एकं राष्ट्रं एकं निर्वाचनम् इत्यस्मिन् विषये स्वकीयं सूचना प्रपत्रं सम्प्रदत्तम्। केन्द्रीय गृहमन्त्री अमितशाहः प्रोक्तवान् च नागरिकता संशोधन अधिनियमेन कस्यापि नागरिकता नाधिग्रहीष्यते। अपि च इंग्लैण्ड ओपन बैडमिंटन प्रतिस्पर्धायां भारतीय बैडमिंटन क्रीडिका पीवी सिंधु अद्य बर्मिंघमस्य यूटिलिटा एरेना इत्यत्र दक्षिण कोरियायाः एन से यंग इत्यनया पराजिता संजाता। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः जवाहरलाल नेहरू स्टेडियम इत्यत्र प्रधानमन्त्री स्वनिधि लाभार्थिनः सम्बोधयति। कार्यक्रमावधौ प्रधानमन्त्री एकलक्ष विक्रेतृभ्यः अस्याः योजनायाः अन्तर्गतं ऋणं प्रदास्यति, येषु नवदिल्ल्याः 5,000 विक्रेतारः सम्मिलिताः सन्ति। श्रीमोदी दिल्ली मेट्रो इत्यस्य चतुर्थ चरणस्य द्वयतिरिक्त यात्रा मार्गयोः आधारशिलाम् अपि संस्थापितवान्। एतेषु यात्रा मार्गेषु लाजपत नगरतः साकेत जी ब्लॉक पर्यन्तम् इन्द्रलोकतः इन्द्रप्रस्थ पर्यन्तम् मेट्रो यात्रा मार्गे सम्मिलिते स्तः। ये 20 किलोमीटर परिमिततोऽपि अधिकम् भविष्यतः। भूटानस्य प्रधानमन्त्री दाशो शेरिंग टोबगे भारतस्य 5-दिवसीय यात्रायाम् अद्य नवदिल्लीं सम्प्राप्तवान्। अस्मिन् वर्षस्य जनवरी मासे पदभारम् अलंकुर्वतः तस्य इयं प्रथमा विदेशयात्रा अस्ति। नवदिल्ल्याः विमानपत्तने केन्द्रीय मन्त्री अश्विनी कुमार चौबे तस्य आतिथ्य सत्कारम् अकरोत्। विदेशमन्त्रालयः प्रोक्तवान् यत् यात्रावधौ भूटानस्य प्रधानमन्त्री राष्ट्रपतिना द्रौपदी मुर्मूवर्यया सह मेलनम् अपि विधास्यति, अपि च प्रधानमन्त्रिणा नरेन्द्रमोदिना सह द्विपक्षीय वार्तां विधास्यति। प्रधानमन्त्री शेरिंग टोबगे अपि मुम्बई यास्यति। विदेशमन्त्री विदेशव्यापारमन्त्री ऊर्जा प्राकृतिक संसाधनमन्त्री उद्योग वाणिज्य मन्त्रिणश्च भूटान सर्वकारस्य वरिष्ठाधिकारिणश्च प्रधानमन्त्री दाशो शेरिंग टोबगे इत्यनेन सह सम्मिलिताः भविष्यन्ति। मन्त्रालयः प्रोदीरितवान् यत् भारत भूटानयोः मध्ये विश्वास सद्भावना परस्पर सामञ्जस्याधारिता सहयोग मैत्र्योः अनुकरणीय सम्बन्धाः सन्ति। भूटानस्य प्रधानमन्त्रिणः यात्रा द्वयोः परस्पर प्रगतेः समीक्षां कर्तुं भारत भूटानयोः मध्ये सहयोगस्य स्थायि सम्बन्धानां विस्तारं च कर्तुं चर्चायै अवसरं प्रदास्यति। सूचना प्रसारण मन्त्रालयेन अश्लील सामग्र्याः प्रसारं विरुध्य 18 ओटीटी प्रसार प्रणाल्यः निषेधिताः। एतेषु ड्रीम्स फिल्म्स, हंट्स, हॉट शॉट्स, वीआईपी, प्राइम प्ले, अनकट अड्डा चेत्यादयः प्रसार प्रणाल्यः सम्मिलिताः सन्ति। एतैः सम्पृक्तानि 19 अन्तर्जाल पटलानि, 10 तन्त्रांशाः, 57 सार्वजनिक सन्देश पटलानि च भारते सार्वजनिक सौविध्याय अप्राप्यानि कृतानि सन्ति। अयं निर्णयः अन्य मन्त्रालयानां महिला बालाधिकार विशेषज्ञानां च परामर्शेन सह सूचना प्रौद्योगिकी अधिनियमः 2000 इत्यस्य प्रावधानान्तर्गतं स्वीकृतः अस्ति। मन्त्रालयः प्रोक्तवान् यत् सूचना प्रसारणमन्त्री अनुराग सिंह ठाकुरः रचनात्मक अभिव्यक्तेरन्तर्गतम् अश्लीलतायाः दुर्व्यवहारस्य च प्रचारं न कर्तुं प्रसारमाध्यमानां दायित्वं यथासमयं सबलं प्रतिपादितवान्। पूर्वराष्ट्रपतिनः रामनाथ कोविन्दस्य नेतृत्वभूतायां एकोच्चस्तरीय समित्या अद्य नवदिल्ल्यां द्रौपदी मुर्मुवर्यायै एकं राष्ट्रं एकं निर्वाचनम् इत्यस्मिन् विषये स्वकीयं सूचना प्रपत्रं सम्प्रदत्तम्। पूर्व राष्ट्रपतिनः रामनाथ कोविंदस्य आध्यक्ष्ये प्रतिष्ठापितया उच्चस्तरीय समित्या स्वकीयं सूचना प्रपत्रं द्रौपदी मुर्मुवर्यायै प्रदत्तम्। एतत् सूचना प्रपत्रं केन्द्रीय गृहमन्त्रिणः अमितशाहस्य विधि न्यायमन्त्रिणः अर्जुन राम मेघवालस्य पञ्चदशतमस्य वित्त आयोगस्य पूर्वाध्यक्षस्य एनके सिंहस्य अन्येषां च उपस्थितौ प्रस्तुतं कृतम्। विधि न्याय मन्त्रालयस्य अनुसारेण एकं राष्ट्रं एकं निर्वाचनम् आकांक्षि भारतस्य मूलमस्ति। षड्विंशत्यधिक षट्शताधिक अष्टादश सहस्र पृष्ठानां सूचना प्रपत्रं हितधारकैः विशेषज्ञैः च सह व्यापक विमर्शस्य एकनवत्युत्तरैकशतं दिवसानां च शोधपरिणामः अस्ति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः नागरिकता संशोधन अधिनियमं पुनरुच्चारितवान्। प्रोक्तवान् च यत् सीएए इति नागरिकता संशोधन अधिनियमः नागरिकतायाः अधिकारं यच्छति, अनेन कस्यापि नागरिकता नाधिग्रहिष्यते। एकस्मिन् समाचारपटले प्रदत्ते साक्षात्कारे श्रीशाहः प्रोक्तवान् यत् नागरिकता संशोधन अधिनियमः अफगानिस्तान बांग्लादेश पाकिस्तान देशेभ्यः समागतेभ्यः हिन्दू बौद्ध जैन सिख ईसाई पारसी शरणार्थिभ्यः नागरिकाधिकारं नागरिकतां च प्रदास्यति। सः प्रोक्तवान् यत् नागरिकता संशोधन अधिनियमान्तर्गतं सर्वेभ्यः समानाधिकारः प्रदास्यन्ते, यतोहि ते अद्य भारतीय नागरिकाः भविष्यन्ति। सः पुनः प्रोक्तवान् यत् ते देशस्य अन्य नागरिकैः सदृशं नागरिकता सूच्यां योजयिष्यन्ते। सहैव ते निर्वाचने अपि भागं भजितुं सांसदाः विधायकाः मुख्यमन्त्रिणः मन्त्रिणः च भवितुं शक्ष्यन्ति। स स्पष्टीकृतवान् यत् राष्ट्रिय नागरिक रजिस्टर एनआरसी इत्यस्य नागरिकता संशोधन अधिनियमेन सह कोऽपि सम्बन्धः नास्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य सिख धर्मावलम्बिनः नववर्षस्यावसरे हार्दिक शुभकामनाः प्रदत्तवान्। एकस्मिन् सार्वजनिक सन्देशपटले श्रीमोदिना आशा प्रकटिता यत् वाहेगुरु इत्यस्य अप्रतिमकृपया सर्वे प्राणिनः कल्याणं प्रचुरतां च अधिगमिष्यन्ति। प्रधानमन्त्री प्रोक्तवान् यत् गुरुसाहेब इत्येतेषां ज्ञानं समाजं स्वकीयोज्ज्वल मार्गदर्शनेन निरन्तरम् आलोकितं कुर्यात्। सुधामूर्ति इत्येषा अद्य राज्यसभायाः सदस्यरूपेण शपथवचनं स्वीकृतवती। राज्यसभायाः सभापतिः जगदीप धनखड़ः संसद्भवने नवनिर्वाचितायै सदस्याय सुधामूर्ति इत्यस्यै शपथवचनं ग्राहितवान्। अस्मिन् अवसरे इम्फोसिस इत्यस्य संस्थापकः नारायणमूर्तिः राज्यसभायाः नेता पीयूषगोयलः चापि सम्मिलितौ आस्ताम्। राष्ट्रपतिना द्रौपदी मुर्मुवर्यया प्रसिद्ध शिक्षिका लेखिका सुधामूर्ति राज्यसभायै नामांकिता। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः अद्य आईआईटी गुवाहाटी इत्यत्र प्रोक्तवती यत् पूर्वोत्तर राज्येषु प्रधानमन्त्रिणा नरेन्द्रमोदिना चिरकालात् ध्यानं प्रदास्यते। विगत दश वर्षेषु अस्मिन् क्षेत्रे बहूनि उल्लेखनीय कार्याणि घटितानि जातानि। प्रधानमन्त्रिणा पूर्वोत्तर राज्यानां विकासाय प्राथमिकता प्रदत्ता, तथा च विगत दश वर्षेषु केन्द्रीय मन्त्री परिषद 50+ वारं अस्य क्षेत्रस्य भ्रमणं कृतवत् इति केन्द्रीय वित्तमन्त्री आईआईटी गुवाहाटी इत्यत्र स्वकीये मुख्य भाषणे अवदत्। सीतारमण वर्या प्रोक्तवती यत् पूर्वोत्तरे विकासस्य संभावना वर्तते, अत्रत्याः युवानः उत्साहिनः ऊर्जावन्तः च सन्ति। केन्द्रीय मन्त्री उक्तवान् यत् प्रधानमन्त्री पूर्वोत्तर राज्याणि भारतस्य विकासाभिलाषस्य चालकयन्त्ररूपेण मन्यते। ऑल इंग्लैंड ओपन बैडमिंटन प्रतिस्पर्धायाः महिला एकल प्रागुपान्त्य चक्रे भारतीय बैडमिंटन क्रीडिका पीवी सिंधु अद्य बर्मिंघमस्य यूटी लिटा एरिना इत्यत्र महिला एकल प्रतिस्पर्धायां दक्षिण कोरियायाः एनसे यंग इत्यनया पराजिता जाता। इति वार्ताः।